बालकानां कृते बाइबिल प्रस्तूयते नोहः तथा महत् सम्पलवम् लेखकेन एडवर्ड ह्यूजेस www.m1914.org नोरा एकमेव नरः आसीत् यः देवम् अचर्यत् सर्वे मनुष्याः देवाय असूयन् अवहेलना च अकुर्वन् एकस्मिन् दिने देवेन किञ्चित् आश्चर्यजनकं शब्दान् उक्तः अहम् एतस्य दुष्टं संसारं विनश्यामि देवः नोहम् उक्तः एकमेव तव परिवारं जीविष्यति भगवान् नोराहं प्रत्यादिष्टः यत् महत् प्लव आगमिष्यति तथा भूमिम् आच्छादिष्यति एका काष्ठामय नौका निर्माणं कुरु एका बृहत् नौका तव कुटुम्बस्य पशूनां च कृते पर्याप्तम् देवेन तम् आज्ञापितम् ईश्वरः नोरं निर्दिष्टम् नोह व्यस्तः अभवत् जनाः हासं कुर्वन्तः यतोहि नोहेन उक्तं यत् सः नौका निर्माणं करोति नोहेन गृहं निर्मितं सः जनैः ईश्वर विषये अवदत् परीच जनाः न श्रुतवन्तः नोहः देवं बहु विश्वस्ति तस्य देवस्य उपरि विश्वासः आसीत् यतो हि एतत् पूर्ववर्षा कदापि न आगतवती तथापि तेन नौका निर्मितं नौका जनानां गमनाय सिद्धा आसीत् सम्प्रतं पशवः आगच्छन्ति ईश्वरः एनं सप्तं जाति अनितवान् तौ अन्यं च महत् लघु च पक्षिणः पशवः च नौकां प्रति गतवन्तः जनाः नोहस्य हासं कृतवन्तः यतोहि तेन नौकायां पशुपक्षिणः स्थापितः जनाः ईश्वरस्य परिहासकरणं न त्यक्तवन्तः ते नोहं नौकायां प्रवेशार्थ न पृष्टवन्तः अन्तः नौकायां सर्वे पशुपक्षिणः आसन् नौकायाम् आगच्छ इति ईश्वरेण नोहम् आमन्त्रितम् भवान् भवता कुटुम्बम् नोहः तस्य भार्या तस्य त्रयः पुत्राः तेषां भार्या नौकायां गतः तदा ईश्वरः द्वारं पिधानं कृतवान् वर्षा आगतवती 40 दिन यावत् वर्षा अभवत् तथा सम्पूर्ण धरा जलमग्न जातः जलप्लावलेन ग्रामं नगरं जलमग्नं जातः यदा वर्षा समाप्ता तदा पर्वताः अपि जलस्य अन्ते आसन् यत् किमपि जीवितं तत् सर्वं मृतम् यदा जलम् उपरि अतिष्ठत नौका अपि उपरि आगच्छतु नौकायाः अन्तः अन्धकारम् अहितुम् आसीत् असुस्थ भयंकर च परैच नौका नूहान् प्लवात् अत्रायत् जलप्लावलस्य पञ्चमासपर्यन्तम् ईश्वरः वायुं शुष्ककरणार्थं प्रेषितवान् शनैः शनैः नौका अरारात् पर्वतस्य उपरि स्थितः नूहः इतोपि 40 दिन यावत् नौकायाम् आसीत् यावत् जलं न्यूनं न जातम् नूहः वातायनात् एकः काकः एकः कपोत बहिः प्रेषितवान् परैच बहिः कुत्रापि शुष्कस्थानं न प्राप्तम् अतः कपोतः नूहस्य पार्श्वे आगतवान् सप्ताह अनन्तरं नूहः पुनः प्रयत्नं कृतवान् कपोतः तस्य चञ्चौ एकं जितवृक्षेण पत्रेण सह प्रति आगच्छत् आगामी सप्ताहे नूह अजानत यत भूमिः शुष्कः जातः यतो हि कपोतः न आगतः देवः नूहम् उक्तः तत्समय अगता यद् त्वं नौकां त्यजे नूह कुटुम्ब सह पशु नौकायात् रिक्तं कृतवान् कियत् कृतज्ञं नूह अनुभूतं सह एकं वेदी निर्मितं तथा च देवान् अर्चयत् यः देवः नूह तथा तस्य कुटुम्बं प्लवात् अरक्षत् ईश्वरः नूहः एकं सुन्दरं प्रतिज्ञा दत्तावान् यत् सः पुनः कदापि मनवानां पापस्य न्यायकरणार्थं जलप्लावलं न प्रेषयिष्यति तथा तस्य प्रतिज्ञायाः स्मरणार्थं सः इन्द्रधनुषं दर्शयति सकुटुम्बेन नूह नूतनं जीवनम् आरम्भं वा अप्राप्तवत् अनन्तरं नूहस्य कुलजाः पुनः लोकस्य कुटुम्बस्य निर्माणं कृतवान् संसारस्य सर्वाणि देशानि नूहेन तथा तस्य कुटुम्बेन अनिर्मितम्। नूह तथा महत् संप्लवम् बाइबल इति कथा भगवत वाक्यम् प्राप्नुयाम् उत्पत्ति छेतः दश भवताम् वाक्यम् अस्माभि प्रकाश्यते भक्ति गीत क्रमांक 119-130। देवः जानाति वयम् अनुचित कार्यान् कृतवन्तः यान् स पापं कथयति पापस्य दण्डनं मृत्यु वर्तते देवः अस्मान् स स्नेहति स स्वीकीयम् एकमेव पुत्रः जीजस् इत्ययं प्रेषितवान् यः क्रोस् चिह्ने मृतः तथा अस्माकं पापानां कृते दण्डे प्राप्तवान् तदा सः पुनरागत्य जीवनं प्राप्तवान् स्वर्गश्च गतवान् अधुना देवः स्वपापानां कृते क्षमां दातुं शक्यते यदि त्वं स्वपापैः निवर्तनं वाच्छसि तदा स्वदेवेन प्रार्थय हे देव अहं विश्वसामि यत् भवानेव देव तथा मानवरूपं धृत्वा मदीयं पापानां कृते निर्यायति एवं अधुना पुनः अधिवसते हे देव मम जीवने आगत्य मदीयं पापैः विमुच्छतु येन अधुना मां नूतन जीवनस्य प्राप्तिर्भवेत् एवं कस्य चिह्निन्ने भवता समीपे सदैव निवसामि मम सहायं करोतु यद् अहं भवताम् आज्ञां परिपालयामि तथा भवताम् समीपे पुत्रवत् एवं निवसामि बाइबल पठन्तु तथा च देवेन सह प्रतिदिनं वार्ता कुर्वन्तु।